एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। संविधान संशोधनस्य कृते विमर्शनपत्रम् निर्मातुम् संघटितेन कार्यदलेन पूर्व राष्ट्रपतिभ्याम् डाक्टर रामवरण यादवेन विद्यादेवी भण्डारिणा च सह पृथक पृथक मेलवार्ताम् विधाय संविधान संशोधनस्य विषयेष् परामर्शनानि संकलितानि वर्तन्ते। तदवसरे पूर्व राष्ट्रपतिः डाक्टर यादवः यथासम्भवम् राष्ट्रिय सहमतिम् विधाय विमर्शनपत्रम् निर्मातुम् परामृष्टवान्। नेपाली जनतायाः संघर्षेण योगदानेन च संविधानसभा समयं परिवर्ध्य गभीरेण परामर्शेन क्रियान्वितस्य संविधानस्य मूलमर्मणः रक्षा अद्यतनी आवश्यकता अस्तीति असौ समस्पष्टयत्। एवमेव पूर्व राष्ट्रपतिना भण्डारिणा संविधानं राजनीतिक संविधानां प्राभिलेखोऽस्तीत्यतः अस्य संशोधनार्थं राष्ट्रिय सहमतिं धृत्वा अग्रे वर्धितुम् आवश्यकमस्तीति प्रावोचत्। प्रधानमन्त्रिणः बालेन्द्र शाहस्य राजनीतिक परामर्शदातुः असीम शाहस्य संयोजकत्वे संघटितेन कार्यदलेन पूर्व राष्ट्रपत्योः निवासौ एव प्राप्य राष्ट्रियहितस्य प्रणालीगत सुधारस्य च विषयेष् केन्द्रीभूय महत्वपूर्ण विमर्शनम् विहितमस्ति। विश्व वातावरण दिवस अद्य आविश्वम् विविधै कार्यक्रमै सह आयोज्यमानोऽस्ति। वातावरणस्य संरक्षणाय विश्वे राजनैतिक्याः सामाजिक्याश्च सञ्चेतनायाः जागरणाय द्वासप्तत्युत्तरैकोनविंशति तमख्रीष्टवर्षस्य जून मासस्य पञ्चम दिवसात् षोडश दिवसं यावत् संयुक्तराष्ट्रसंघस्य महासभया विश्व वातावरण सम्मेलनस्य आयोजना विहिता आसीत्। सम्मेलनस्य एकवर्षानन्तरं वातावरणस्य संरक्षणस्य आवश्यकतामनुभूय त्र्युत्तरैकोनविंशतितम ख्रीष्टवर्षस्य जून मासस्य पञ्चमे दिवसे प्रथमवारं विश्व वातावरण दिवस आयोजित आसीत्। दिवसस्य अवसरे सन्देशं ददता राष्ट्रपतिना रामचन्द्र पौडेलेन वातावरणं स्वच्छं विधाय वन जल वनस्पति कृषि जीवानां च पर्यावरणीय सम्बन्धं जीवनमुखीं विधाय नेपालस्य संविधानेन प्रदत्ते स्वच्छ वातावरणे जीवनाधिकारं सार्थकं विधातुम् अनुरुद्धमस्ति। राष्ट्रिय स्वतन्त्र दलस्य सभापतिः रवि लामिछाने स्वकीयं भारत भ्रमणं व्यक्तिगत रूपेण दलगत रूपेण वा उपर्युत्थाय नेपालस्य विकासाय समृद्धाय च केन्द्रीकृत्य सञ्जातमस्तीति उक्तवान् वर्तते। नवदेहल्यां ह्य आयोजिते कार्यक्रमे सभापतिः लामिछाने नेपालम् आर्थिकस्य विकासस्य च नवीने मार्गे अग्रे वर्धयितुं विभिन्नेष् स्तरेष् संवादस्य सहकार्यस्य च वातावरणं निर्मातुं च आत्मना भारतस्य भ्रमणं विहितमस्तीति प्रावोचत्। पश्चात्तन वर्षेष् भारतदेशेन विहितस्य विकासस्य अनुभवात् नेपालेनापि शिक्षा ग्रहणीया इति असौ अभाषत। परराष्ट्र मन्त्री शिशिर खनालः भारतीय विदेश मन्त्रिणः एस जयशंकरस्य मैत्रीपूर्णायां निमन्त्रणायाम् अद्यतः परश्व चतुर्विंशं दिवसं यावत् भारतस्य औपचारिक भ्रमणाय प्रतिष्ठते। भ्रमणस्य क्रमे परराष्ट्र मन्त्रिणः खनालस्य भारतदेशस्य विदेश मन्त्रिणः जयशंकरस्य च मध्ये मेलवार्ता भविष्यति इति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। मेलने अनयोर्मध्ये द्विपक्षीयस्य व्यापारस्य निवेशस्य ऊर्जसः जनस्तराणां सम्बन्ध विषयेष् विमर्शनं भविष्यति इति ज्ञापितं वर्तते। परराष्ट्रमन्त्री खनालः अस्यैव ज्येष्ठ मासस्य चतुर्विंशे दिवसे स्वदेशं प्रत्यागमिष्यति इति परराष्ट्र मन्त्रालयेन ज्ञापितमस्ति। भू सर्वेक्षण विभागेन मेरो किता मोबाइल एप इति दूरभाष सञ्जालं सार्वजनिकृतमस्ति। भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रिणः प्रतिभा रावल इत्यस्याः उपस्थितौ मेरो किता मोबाइल एप इति दूरभाष सञ्जालं सार्वजनिकृतं वर्तते। दूरभाष सञ्जालस्य माध्यमेन नागरिकै भूमि सम्बद्धा सेवा गृहे एव प्रापयिष्यते। सञ्जालस्य माध्यमेन मानचित्र मुद्रणस्य क्षेत्र पुस्तिकायाः क्षेत्र रेखांकनस्य च कृते युत माध्यमेन आवेदनं दातुं शक्यते। सभामुखः डोलप्रसाद अर्यालः निगदति संविधानेन प्रदत्तस्य अधिकारस्य प्रभावपूर्णाय क्रियान्वयनाय संघीय संसद प्रतिबद्धा अस्ति। स्पृश्यास्पृश्योन्मूलन राष्ट्रिय दिवसस्य अवसरे राष्ट्रिय दलित आयोगेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे सभामुखः अर्यालः स्पृश्यास्पृश्य विभेदस्य अन्त्यं न केवलं सर्वकारस्य प्रयासेन अपित् राज्यस्य राजनैतिक दलानां नागरिक समाजस्य संचार क्षेत्रस्य शैक्षिक संस्थानां सम्पूर्ण नागरिक निर्माणांश दायित्वमस्ति प्रावोचत। तदवसरे महिला बाल बालिका लैंगिक यौनिक अल्पसंख्यक सामाजिक सुरक्षा मन्त्री सीतावादी स्पृश्यास्पृश्ययो विभेदो लोकतान्त्रिकस्य प्रोन्नत समाजस्य च बाधको स्थिति उक्तवती। कार्यक्रमे महान्यायाधिवक्ता डाक्टर नारायण दत्त कडेल स्पृश्यापृश्य विभेदस्य उन्मूलनाय सामाजिक सचेतनाया अभिवृद्धौ सर्वकारेण आयोगेन सम्बद्धै पक्षैश्च ऐक्यबद्धतया कार्यं करणीयम् इत्यत्र बलं प्रादात्। रोल्पा जनपदस्य माडी ग्रामपालिकायाः द्वितीय वडा क्षेत्रस्य घर्ती गाउँ स्थाने बोलेरो जीपयानस्य दुर्घटनायां त्रयोजनाः मृताः सन्ति। मृतकेषु जीपयानस्य चालकः दाङ जनपदस्य घुराही उपमहानगरपालिकायाः सप्तम वडा क्षेत्रस्य देसाही स्थानस्य पञ्चविंशति वर्षीय वीरबहादुर चौधरी, दंगी शरण ग्रामपालिकायाः सप्तम वडा क्षेत्रस्य चत्वारिंशत् वर्षीय जीवधन चौधरी, तदीय पत्नी अष्टात्रिंशत् वर्षीया कमला चौधरी च वर्तन्ते इति स्थानीय प्रहरी कार्यालयेन ज्ञापितम् वर्तते। पश्चात्तन चतुर्विंशतेः घण्टानाम् अभ्यन्तरे देशस्य विभिन्नेषु क्षेत्रेषु सम्भूतासु विपज्जन्यासु घटनासु पञ्चजनाः मृताः सन्ति। राष्ट्रिय विपद न्यूनीकरण व्यवस्थापन प्राधिकरणस्य अनुसारेण रौतहट, बारा, कपिलवस्तु, रोल्पा जनपदेषु पञ्चजनाः मृताः सन्ति। मकवानपुर, मोरङ, सिराहा, पर्सा, चितवन, कपिलवस्तु, दाङ, पाल्पा, कञ्चनपुर जनपदेषु सम्भूतासु विपज्जन्यासु घटनासु निपत्य एकादश जनाः आहताः वर्तन्ते इति प्राधिकरणस्य प्रवक्ता शान्ति महत असूचयत्। एतस्य अनुसारेण रौतहट, बारा, कपिलवस्तु जनपदेषु सर्पदंशेन एका महिला, एक बालकः, एका बालिका च मृताः सन्ति। रोल्पा जनपदस्य गंगादेव ग्रामपालिकायाः रातमाटा क्षेत्रे झटित्या गते जलविप्लवे निमज्ज्य द्वौ बालकौ मृतौ इति प्राधिकरणेन प्रकाशितायां विज्ञप्तौ उल्लिखितम् वर्तते। कतिपयेभ्य दिवसेभ्य तराई मधेश क्षेत्रेषु अत्यधिक रूपेण उष्णता वर्धमानास्ति। उष्णतायाः कारणेन कृषकाः श्रमिकाश्च प्रभाविताः वर्तन्ते। लुम्बिनी प्रदेशस्य तराई क्षेत्रस्य भूभागेषु कतिपयेषु स्थानेषु उष्णवायोः प्रवहनस्य सम्भावना अस्तित्यतः सावधानताम् अवलम्बितुं जलवायु विज्ञान विभागेन सर्वे संसूचिताः वर्तन्ते। महाशाखया ह्य सूचनां प्रकाश्य विशेषतः बर्दिया, बाँकेदाङ, कपिलवस्तु, रूपन्देही, नवलपरासी, पर्सा, बारा, रौतहट, महोत्तरी, सर्लाही, सिराह, सप्तरी जनपदेषु सावधानताम् अवलम्बितुं सर्वे अनुरुद्धाः सन्ति। अद्य स्वस्य कोशी प्रदेशेन सहितेषु देशस्य हिमालयेषु पर्वतीयेषु च भूभागेषु विद्युत् पतनेन सहैव वृष्टिः सम्भविष्यति इति महाशाखया ज्ञापितम् वर्तते।